ವಂದೇ ದೇವ ಉಮಾಪತಿಂ ಸುರಗುರುಂ ವಂದೇ ಜಗತ್ಕಾರಣಂ ವಂದೇ ಪನ್ನಗಭೂಷಣಂ ಮೃಗಧರಂ ವಂದೇ ಪಶೂನಾಂ ಪತಿಂ ವಂದೇ ಸೂರ್ಯಶಶಾಂಕವಹ್ನಿನಯನಂ ವಂದೇ ಮುಕುಂದಪ್ರಿಯಂ ವಂದೇ ಭಕ್ತಜನಾಶ್ರಯಂ ಚ ವರದಂ ವಂದೇ ಶಿವಂ ಶಂಕರಂ ಅಥ ಶಿವಮಹಿಂನ ಸ್ತೋತ್ರಂ ಪುಷ್ಪದಂತ ಉವಾಚ ಅತರ್ಕ್ಯೈಶ್ವರ್ಯೇತ್ವಯ್ಯನವಸರದುಸ್ಥೋಹತ ಧಿಯ ಕುತ तर्कोऽयं कांश्चिन् मुखरयति मोहाय जगत् नादृत्य भवति अनीशो वा कुर्यात् भुवन जनने कर्परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदपथ्यमिति च रुचीनां वैचित्र्याद्रजुकुटिलनापथजुषां नृणामेको गम्यस्त्वमसि पयसा मरण भवद्रूपणीतां न हि स्वात्मा रामं विषयमृगतृष्णा भ्रमयति ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं परो द्रव्याद्रव्ये जगति गदति व्यस्तविषये समस्तेऽप्येतस्मिन् पुरमथनतैर्विस्मित इव स्तुवन् जीवे मे त्वां न खलु ननु दृष्टाम् यदुपरि विरञ्चोर्हरिरध परिच्छेतुं यातावनलमनलस्कन्धवपुष ततो भक्तिश्रद्धा भरगुरुगुणद्भ्यां गिरिशयत् स्वयं तस्थेताभ्यां तव किमनुवृत्तिर्न फलति शास्यो यद्बाहून ब्रुतरणकण्डोपरवशान् श्रियः पद्मश्रेणी रचितचरणाम्भोरुहबले स्थिरायास्त्वद्भक्ते स्त्रिपुरहरवे स्फूर्जितमिदम् अमोष्यत्वत्सेवा समधिगतसारम् वसतौ विक्रमयत फलव्यापातारेप्यरसचलिताङ्गुष्ठशिरसि प्रतिष्ठातैयासि ध्रुवमुपचितो मुह्यति खल मधश्चक्रे बाण परिजन विधेयस्त्रिभुवन न तच्चित्रं तस्मिन् वरिवसितरी त्वच्चरणयोर्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनति संवृतवत सकल्माषः कण्ठे तवन गुरुतेन श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गौ व्यसनिनम् चिदपि स देवासुरनरे विवर्तन्ते नित्यं जगति जैनो यस्य विशिखा स पश्यन्नीशत्वामितरसुरसाधारणमभूत् स्मर स्मर्तव्यात्मा नैव शिशुपत्य परिभव जगद्रक्षायै त्वं नटसि ननु वामैव विभुता शतलघुदृष्टशिरसिते जगद्वीपाकारं जलधिवलयं तेन कृतमीत्यनेनैवोन्नेयं कृतमहिमदेव्यं तव वपु रथाक्षोणीयन्ता शतद्रुतिरगेन्द्रो धनुरथो रथाङ्गे चरणपाणिशर इति निकक्षोस्ते भूयं त्रिपुरतृणमाडम्बरविधिर्विधेयै क्रीडन्त्यो न खलु परतन्त्रा प्रबुधिय कमलं गतो भक्त्युद्रेक परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगतां क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां त्वकर्म प्रध्वस्तं फलति राधनमृते पतस्त्वं सम्प्रेक्ष्य चतुषु फलदान प्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा दृढपरिकर कर्म सुजनम् क्रतुपतिरधीशस्तनुभृतां ऋषीणामार्त्रेज्यं शरणदसदस्यासुरगणं क्रतुभेषस्त्वत्त क्रतुफलविधानौ व्यसनिनो ध्रुवं कर्तुश्रद्धा विधुरमभिच प्रचाराय हिमखम्। प्रचारार्थं नाथ प्रसभमभिकं स्वां दुहितरं कथं रोहित भूतां रिरमयिषु मृष्यस्य वपुषा धनुष्पाणियादं दिवमपि सपत्राकृतमम् सन्तन्तेद्यापि यजति न मृगौ व्याधरभस। यमनिरतदेहार्धघटना दवैति त्वामद्धावत वरदमोद्धायुवतय। स्मशानेष्वा क्रीडा स्मरहर पिशाचा सहचरा श्चिता भस्मालेप स्रगपि नृकरो परिकर। अमङ्गल्यं शीलं तव भवतु नामैव मखिलं तथा विस्मर्तॄणां वरद परमम् मङ्गलमसि। यदाल्लोक्याल्लादं हृदैव निमज्जामृतमये दधन्त्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवम्। त्वमार्कस्त्वं सोमास्त्वमसि पवनस्त्वं हुतवः त्वमापस्त्वं व्योम त्वमुदरणिरा तत्त्वं वयमिह तु यत्त्वं न भवसि। नयनयविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति। बहल रजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः कृशपरिणति चेतः क्लेशवश्यं क्वचेदं क्वच तव गुणसीमोल्लङ्घिनी शश्वद्रुद्धिः इति चकितममन्दीकृत्य मां भक्तिराधात् वरदचरणयोस्ते वाक्यपुष्पोपहारम् असितगिरिसमंस्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखालेखनी पत्रमूर्वी लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारन्नयाति असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलेर्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य सकलगुणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार अहर हर नवद्यं धूर्जटे स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तः पुमान्यः स भवति शिवलोके रुद्रतुल्यस्तथात्र प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च महेशान्नापरो देवो महिम्नो नापरास्तुतिः अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् दीक्षादानं तपस्तीर्थम् ज्ञानं यागादिकाः क्रियाः महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशी कुसुमदशननामा सर्वगन्धर्वराज शिशुशशिधरमौलेर्देवदेवस्य दासः स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकार्षीत् दिव्यदिव्यं महिम्नः सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेता व्रजति शिवसमीपं किन्नरैस्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः तेषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः अर्पिता तेन देवेश प्रियतां मे सदाशिवः। इति श्रीपुष्पदन्तविरचितं शिवमहिम्नः स्तोत्रं सम्पूर्णम्।